एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली कृषेः उत्पादनं द्विगुणेन वर्धयितुं बलं ददाति बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिताम् कृषि वन विज्ञान विश्वविद्यालयस्य त्रयोदशतमीं विश्वविद्यालय सभां सम्बोधयन् प्रधानमन्त्री विश्वविद्यालयस्य कुलपति छ ओली कृषि प्रधान देश नेपाले जीविकोपार्जनाय एव विहितस्य परम्परागतस्य कृषि कार्यस्य निर्भरताम् अपसार्य आधुनिकम् उत्पादनमूलकम् कृषि कर्म विधातुम् अनुरुणात् प्रधानमन्त्री ओली कस्मिन् स्थाने कीदृशस्य अन्नस्योत्पादनम् सम्भवति तदन्नम् उपभोक्तृषु सहजतया कथम् प्रापयितुम् शक्यते इति विषयस्य अध्ययनेन सहकारी संस्थानाम् सहकार्यस्य निजक्षेत्रस्य च सहभागितायाम् उत्पादकत्वम् वर्धयितुम् बलम् प्रादात् एतदर्थम् देशस्य आवश्यकताम् विचार्य कृषि वैज्ञानिकैः स्थपत्यादिभिश्च सह दक्ष्याम् जनशक्तिम् उत्पादयितुम् प्रधानमन्त्री ओली विश्वविद्यालयम् अनुरुणत् प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली कथयति संविधानस्य क्रियान्वयनाय स्वर्गीयस्य सुभाष चन्द्र नेमाङ इत्यस्य भूमिका योगदानञ्च असाधारणं वर्तते च्यासलवर्तिनी नेकपा एमाले दलस्य केन्द्रीय कार्यालये ह्य आयोजिताम् तात्कालिक संविधान सभायाः अध्यक्षस्य दलस्य उपाध्यक्षस्य च स्वर्गीयस्य सुभाष चन्द्र नेमाङ इत्यस्य प्रथम स्मृति सभां सम्बोधयन् प्रधानमन्त्री ओली संविधान सभायाः सफलीकरणस्य अथ च संसदः अनुशासने स्वस्थ वातावरणे च स्थापनस्य क्षमता स्वर्गीय नेम्माङ इत्यस्मै आसीदिति अस्मरत् प्रधानमन्त्री ओली नेम्माङ इत्यस्य निधनात् राष्ट्रेण जनपक्षीय देशभक्तश्च नेता हापनीय अभूदिति स्मरन् तेन दलाय च अपूरणीया क्षति सम्भूतेति अवोचत् प्रधानमन्त्री ओली स्वर्गीयस्य नेम्माङ इत्यस्य सौम्य स्वभावात् देशभक्तितश्च पाठं शिक्षित्वा अग्रेवर्धनं वर्तमानावस्थायां सान्दर्भिकञ्च वर्तते इति प्रत्यपादयत् प्रतिनिधिसभायाः स्थनोपवेशः सत्तापक्षस्य प्रतिपक्षस्य सांसदेषु हिंसाशब्दस्य प्रयोगस्य विषयेण सम्बद्धस्य विवादस्य कारणेन स्थगितोऽभवत् उपवेशे सभामुखेन देवराज घिमिरे भिदेर नेकपा एमाले दलस्य सांसदेन योगेश भट्टराई इत्यनेन अस्यैव भाद्रमासस्य द्वादशे दिवसे संसदि भाषणस्य क्रमे प्रयुक्तः हिंसाशब्दः संसद अभिलेखालयात् अपसारणीयो नास्तीति कथनानन्तरं नेकपा माओवादी केन्द्रस्य सांसदैः तस्य विरोधः कृतो वर्तते तदवसरे सभामुख घिमिरे परामर्श समितेः संसद सचिवालयस्य च सह परामर्शे विहिते सति हिंसाशब्दः अभिलेखालयाद् अपसारणीयो नास्तीति निर्णयः सम्भूतोऽस्तीति उपवेशं विज्ञापितवान् आसीत् तदनुपदमेव नेकपा माओवादी केन्द्रस्य प्रमुख सचेतकपदीयो हितराज पाण्डे संविधानस्य बहिर्भवनस्य अधिकारः कस्मै अपि नास्तीति उक्त्वा संविधानस्य शान्ति प्रक्रियायाश्च विपरीतः शब्दः प्रयोक्तुं न शक्यते इति भाषमाणः आपत्तिं प्रकटितवान् तदनन्तरम् उपवेशे नेकपा एमाले दलस्य नेत्रे रघुजी पन्त इत्यस्मै वक्तुं समयम् अदात् तदनुपदमेव पुनः माओवादी केन्द्रस्य नेत्रा माधव सापकोटा इत्यनेन वक्तुं समयः याचितः आसीत् परं सभामुखेन सापकोटा इत्यस्मै समयः अप्रदत्तः तदनन्तरं स्वस्वस्थानेभ्यः उत्थाय संसद अवरुद्ध आसीत् तदनु सांसदाय देवेन्द्र पौडेलाय वक्तुं समयं प्रदाय वादविवादेन संसद कार्याणि अग्रे वर्धयितुं न शक्यते इत्युक्त्वा सभामुखेन घिमिरे विधेन संसदं नावरोद्धुम् अनुरुद्धमासीत् भूयो भूयो विहितस्य अनुरोधस्य पश्चादपि माओवादी केन्द्रस्य सांसदैः असहयोगकरणानन्तरं सभामुख घिमिरे अस्यैव भाद्रमासस्य त्रिंशे दिवसे रविवासरे दिवा एकवादने उपवेक्ष्यमाणत्वेन उपवेशम् अस्थगयत् तत्पूर्वम् उपवेशे नेपाली कांग्रेस दलस्य सांसदैः उपसभामुखस्य इन्दिरा राणा मगर इत्यस्याः त्यागपत्रम् अभियाचितमासीत् उपवेशस्य आकस्मिक समये कांग्रेस दलस्य सांसदैः राणा इत्यनया एकोनविंशतेः मासेभ्यः पूर्वम् अमेरिका देशे प्रेषणेन सम्बद्धे पत्रे हस्ताक्षराणि न कर्तव्यानि आसन् इत्युक्त्वा अस्य विषयस्य अनुसन्धानाय त्यागपत्रं प्रदाय सहयोक्तुम् अभियाचितम् आसीत् नेपाली कांग्रेस दलेन उपसभामुख इन्दिरा राणा मार्गम प्रशस्ति कर्तुम अनुरूद्धा वर्तते। सभापते शेरबहादुर देउवा विदस्य बुढा नीलकण्ठ वर्तिने निवासे उपविष्टेन दलस्य पदाधिकारीणाम पूर्व पदाधिकारीणाम चोपवेशेन सभामुख राणा स्वयमेव मार्गम प्रशस्ति कर्तुम अनुरूद्धा वर्तते। उपवेशस्य पश्चात संचारकर्मीभिः सह नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो श्याम प्रसाद घिमिरे उपवेशे सत्तारूढानां दलानाम् उपवेशेन सभामुखस्य विषये संयुक्तां धारणां निर्मातुं निर्णीतमस्तीति अज्ञापयत्। घिमिरे अनधिकृततया सभामुखेन असम्बद्धान् जनान् स्वेन सह वैदेशिके कार्यक्रमे नेतुम् अन्य देशस्य दूतावासाय विहितः पत्राचारः संसदीय मर्यादायाः विपरीतो स्थिति निष्कर्षः प्रकाशितो वर्तते इति अज्ञापयत्। जलवायोः सक्रियतायाः कारणेन अद्यतः दिनत्रयं यावत् वृष्टेः सम्भावना अस्ति इति जलवायु पूर्वानुमान महाशाखया ज्ञापितं वर्तते। विभागेन ह्य सूचनां प्रकाश्य देशस्य केषुचित् स्थानेषु अधिकाः वर्षाः सम्भविष्यन्ति इत्यतः सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। महाशाखायाः विज्ञ शान्ति कडेलः सम्प्रति आराश्रं जलवायोः प्रभावो स्थिति असूचयत्। परराष्ट्र मन्त्री डाक्टर आर्जु राणा देउवा सुदूरपश्चिम क्षेत्रस्य विकासाय आत्मना सदैव प्रयत्यते इति प्रतिबद्धताम् व्यनक्ति। सुदूरपश्चिमाञ्चल सम्बद्धस्य मञ्चस्य पदाधिकारीभिः सदस्यैश्च सह ह्य मेलनस्य क्रमे परराष्ट्र मन्त्री डाक्टर राणा पदे विद्यमाने अविद्यमाने च सति सुदूरपश्चिम क्षेत्रस्य विकासं विधाय तत्रत्यानां नागरिकाणां जीवनस्तरस्य उन्नयनस्य कार्यं करिष्यते इति प्रतिबद्धतां व्यक्तवती। परराष्ट्र मन्त्री राणा प्रतिवेशि देशयोः सीमानं सीमक सुरक्षा केन्द्रं च इतोऽपि व्यवस्थितं विधातुं प्रयत्यते इत्यभाषत। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री पाण्डे निगदति पोखरावर्तिनः अन्तर्राष्ट्रिय विमानस्थलस्य गौतम बुद्धान्तर्राष्ट्रिय विमानस्थलस्य च प्रभावकारी रूपेण सञ्चालनाय प्रतिवेशि राष्ट्राणां सहयोगः आवश्यको वर्तते। भारतस्य रयादेलीस्थाने ह्य प्रारब्धे अन्तर्राष्ट्रिय नागरिकोड्डयन संघटनस्य एशिया प्रशान्त क्षेत्रस्य मन्त्रीस्तरीय द्वितीय सम्मेलने पर्यटन मन्त्री पाण्डे अन्तर्राष्ट्रिय विमानस्थलद्वयस्य सञ्चालनाय प्रतिवेशि देशानां सहयोगम् ऐक्षत। तदवसरे मन्त्रिणा पाण्डेभिदेन नेपाले उड्डयन क्षेत्रस्य अनुसन्धान केन्द्रं प्रशिक्षण केन्द्रं च संस्थापयितुम् अनुरोधं विधाय एतदर्थम् आवश्यक सहयोगाय नेपाल सर्वकारः तत्परोऽस्तीति उक्तमासीत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी निगदति विजयादशमीं यावत् सर्वेभ्य दुग्धकृषकेभ्य प्रदातुम् अवशिष्टस्य वित्तस्य प्रदानाय व्यवस्था विधीयमाना अस्ति। विराटनगर विमानस्थले ह्य संचारकर्मीभिः सह मन्त्री अधिकारी नैज क्षेत्रेण संचालितानि दुग्ध संकलन केन्द्राणि दुग्ध विकास संस्थानञ्च संहत्य कृषकेभ्य आसन्न चतुरब्ज रूप्यकाणि दातुम् अवशिष्टानि सन्तीति चर्चयन् नैज क्षेत्रेण संचालितैः दुग्ध केन्द्रैरपि यथाशीघ्रं कृषकेभ्य रूप्यकाणि दातव्यानीति अभाषत। तनह जनपदस्य आबु खैरेनी स्थाने बसयान दुर्घटनायां पञ्चदश जनाः आहताः वर्तन्ते। मुगलिनस्थानात् डुम्रेस्थानं प्रतिगच्छतः बसयानस्य खोलिकायां पतनेन आहतेषु मध्ये पञ्चानां जनानाम् अवस्था गभीरा अस्ति इति आबु खैरेनी स्थानीय प्रहरी कार्यालयस्य प्रहरी निरीक्षकः टेक प्रसाद सुवेदी सूचयति। आहतानां जनानाम् आबु खैरेनी चिकित्सालये उपचारः जायमानो वर्तते। इति समाचारः।